तृतीयोऽध्यायः
नरः हस्तेन खादति नृपेभ्यः आहारं पचामः आहारः नरेण पच्यते नृपाय नृपैः सद्यते खाद्यते च हे नर नृपात् गच्छसि नृपाय च पचसि अश्वेन आहारः खाद्यते नरात् नृपम् अश्वेन गच्छथ सीदावः हस्तैः च आहारं खादावः नृपौ नरैः सह अश्वाभ्यां गच्छतः।